కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణా బ్రహ్మణస్పత ఆనశృణ్వన్నోదిభిః సీదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజిదేవతీ భీనావవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతో దిషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతమతయానో రుద్రమృడయా యాతే రుద్ర శివా తనురఘోరా పాపకాశిని తయానస్తను వాశంతమయా గిరిశంతాభిజాగశీ యామిషుం గిరిశంతహస్తే బిభశ్యస్తవే శివాం గిరిత్రతాం కురువాహిగుం శ్రీ పురుషం జగత్ శివే నవచసా త్వా గిరిశాచ్ఛావదామసి యథా సర్వమిజ్జగత యక్ష్మగుం సుమనా అసత్ అధ్యవోచదది వక్త ప్రథమో దైవ్యోభిషక్ అహీగశ్చ సర్వాంజం వయన్ సర్వాస్తయాతు ధాన్యః అసౌయస్తామ్రో అరుణ ఉత బభ్రుః సుమంగళః ఏజేవాగుం రుద్రాభిగో దిక్షశ్రయాత్ సహస్రశో వైశాగుం హేళ ఇవహే అసవ్యో వసత్పతి నీలగ్రీవో విలోహితః ఉదైనం గోవా అదృశన్నదృశన్నుదహార్యః ఉదైనం విశ్వాభూతాని సదృష్టో మృడయాదినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అధోయే అస్య సత్వానోహం తేభ్యో కరణవః ప్రవంచ ధన్వరత్వముభయోరాద్యోర్జ్యాం యాశ్చ దేహస్థ ఇషవః పరాతా భగవో వవ అవదత్యధనుస్వగుం సహస్రాక్షశతేషుధే నిజీవ్య శల్యానాముకా శివోన సుమనాభవ విజ్యం ధనుక్కవర్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః యా దేహేతిర్మీఢుష్టవహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా నమస్తే అస్వాయుధాయ దృష్టవే ఉభాభ్యాముదే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్మృణక్తు విశ్వతః అధోయ ఇషుజిస్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః నమో హిరణ్యవాహవే దిశాం చ పతయే నమో నమో వృక్షేభ్యో हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिन् जराय त्विषीमते मधीनाम् पतये नमो नमो बब्लुजाय दिव्यादिने नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायातताविने क्षेत्राणाम् पतये नमो नमः सूतायाहन्त्याय वनानाम् पतये नमो नमो रोहितायस्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाया क्रन्दयते पत्नीनाम् पतये नमो नम कृत्सवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गणे सेनानाम् पतये नमो नमो निषङ्गण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृगाविभ्यो जिगागुंसद्भ्यो भुष्टताम् पतये नमो नमो शिवद्भ्यो नक्तम् जरद्यप्रगृन्दानाम् पतये नमो नम उष्णीशिने गिरिचराय कुलुञ्जानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्चयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सवाभ्यः सवापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नमः व्याधिनीभ्यो विविध्यन्देभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम्भदेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो प्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्यहच्चुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नम सेना सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः रक्षभ्यो रजकारेभ्यश्च वो नमो नमः कुलारेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वगद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः स्वभ्यश्वपतिभ्यश्च वो नमः चर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेढुट्टमाय चेशुभते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नम आशवे चाचिराय च नम शीघ्र्याय च शेभ्याय च नम ओर्भ्याय चावस्वन्याय च नम श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नम ओर्वजाय च परजाय च नमो मध्यमाय च अगल्भाय च नमो जगन्याय च बुद्धयाय च नम सोऽभ्याय च प्रतिसर्याय च नमो ज्ञाम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नम श्लोक्याय चावधान्याय च नमो वन्याय च कक्षाय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नम शूराय चावबिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हरण्याय च नमो तृष्णवे च प्रवृषाय च नमो दूताय च रहिताय च नमो निषङ्गिणे चेशुधिवते च नम श्रेष्णेश वेजायुधिने च नम स्वायुधाय च सुधन्वने च नम श्रुत्याय च पत्याय च नम काट्याय च नीप्याय च नम सोद्याय च सरस्याय च नमो नाद्याय च वैशन्नाय च नम कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नम ईन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हरियते च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोर्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आताद्याय चाराद्याय च नमः षष्ट्याय च भेम्याय च नमः सिगत्याय च प्रवाक्याय च नम इरिण्याय च प्रपत्याय च नमः केगुंशिराय च क्षयणाय च नमः ಕಪರ್ತಿನೆ ಚ ಪುರಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಟ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಃ ಸ್ಥಲ್ಪ್ಯಾಯ ಚ ಗೇಹ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ಗಹ್ವರೇಷ್ಠಾಯ ಚ ನಮೋ ಹೃದಯಾಯ ಚ ನಿವೇಷ್ಟ್ಯಾಯ ಚ ನಮಃ ಪಾಗುಂಧವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಪ್ಯಾಯ ಚ ನಮಃ ಓರ್ಜ್ಯಾಯ ಚ ಸೋರ್ಭ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶಕ್ತ್ಯಾಯ ಚ ನಮೋ ಬಗುರಮಾನಾಯ ಚ ಭಿಗ್ನದೆ ಚ ನಮಃ ಆಖ್ಯದತೆ ಚ ಪ್ರಖ್ಯದತೆ ಚ ನಮೋ ವಕ್ಕಿರಿಗೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಗೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವಕ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೆಭ್ಯೋ ನಮ ಆಮೀವಕ್ಕೇಭ್ಯಃ ತ್ರಾಪೇ ಅಂಧಸಸ್ಪದೆ ದರಿದ್ರನ್ನೀಲಲೋಹಿತ ಏಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾರೋಭೋ ಏಷಾಂ ಕಿಂಚನ ಮಮತ್ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಃ ಭೇಷಜೀ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೀ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತಮಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರವರಾಮಹೇಮತಿಂ ಯಥಾ ನಶ್ಯಮಸದ್ವಿಪದೆ ಚತುಷ್ಪದೆ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ವೃಡಾನೋ ರುದ್ರೋದನೋ ಮಯಸ್ಕೃತಿ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೆ ಯಚ್ಚಂ ಚಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಯಾಮತಪ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತಮುತಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವಧೇ ಪಿತರಂ ಮೋದ ಮಾತರ ಪ್ರಿಯಾಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇತನ ಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರಭಾಮಿತೋ ಮದೇರ್ ಅವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೆ ಆರಾತ್ರೆ ಗೋಗ್ರಮುತ ಪೌರುಷಗ್ನೆ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೆ ಅಸ್ತೋ ರಕ್ಷಾ ಜನೋ ಅಲಿಜ ದೇವ ಬ್ರೂಯದಾ ಜನ ಶರ್ಮ ಯಚ್ಚದ್ವಿಬರ್ಹಾ ಸುಹಿ ಶ್ರುತಂ ಗತ್ತ ಸದಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ತು ಉಗ್ರಂ ಮೃಳಾಜರಿದ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂದೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇ ದರ್ವಣ ತ್ರುಪರಿ ತ್ವೇಷಸ್ಯ ದುರ್ಮದಿರಗಾಯೋ ಅವಸ್ತಿ ರಾಮಗವದ್ಭ್ಯಸ್ತನುಶ್ವಮೀಡುಸ್ತೋಕಾಯತನಯಾಯ ಮೃಡಯ ಮೀಡುಷ್ಟಮ ಶಿವ ತಮ ಶಿವೋ ನ ಸುಮನಾ ಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯಂ ವಸಾನಮಾಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹೀ ವಿಗಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಏದಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಬಂತು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಜೇನಾಮುಖಾಕೃತೆ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೋಮ್ಯಾ ಪೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವಧನ್ಮಾನಿ ತನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂದರಿಕ್ಷೇ ಭವಾಧಿ नीलग्रीवाशति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशति कण्ठादिवगुम् रुद्रा उपश्रिदाः ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकातः कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम् अतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति शृगावन्दो निषङ्गिणः येतावन्दश्च भूयागुन्दश्च दिशो रुद्राविदस्तिरे देशागुन्दश्रयोजने वधन्मानि सन्मते नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि येषावन्नम् मातो वरुषमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदे चेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृणयन्तु देयम् विष्णो यश्च नो द्वेष्टितम् भोजम् मे दधामि त्र्यम्बकम् यजामहे सुगन्धिम् वृष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवना विभेषतस्तै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मत्यायहन्तवे यज्ञस्य मायया सर्वानवयजामहे प्रत्यवे स्वाहा प्रत्यवे स्वाहा प्राणानाम् ग्रन्थिरतिरुद्रो माविशान्दकः तेनान्येनाप्याय स्वा नमो रुद्राय वैष्णवे प्रत्यवे पाहि तमस्तु हि यस्वशस्वदन्नायो विश्वस्य क्षयदिवेशजस्य यक्ष्वाकामहेतो मनसाय रुद्रम् नमोभिर्देवमसुरन्दुमस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे सजो यगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागदम् वाजश्च मे प्रतपश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च म आधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनुश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वश्मा च मे द्राघुया च मे वृद्धम् ಚ ಮೇ ವೃದ್ಧಿಶ್ಚ ಮೇ ಸತ್ಯಂಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗಚ್ಚ ಮೇ ಧನಂಚ ಮೇ ವಶಶ್ಚ ಮೇ ದ್ವಿಷಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂಚ ಮೇ ಜನಿಷ್ಯಮಾನಂಚ ಮೇ ಸೂಕ್ತಂಚ ಮೇ ಸುಕೃತಂಚ ಮೇ ವಿತ್ತಂಚ ಮೇ ವೇದ್ಯಂಚ ಮೇ ಭೂತಂಚ ಮೇ ಭವಿಷ್ಯಚ್ಚ ಮೇ ಸುಗಂಚ ಮೇ ಸುಪಥಂಚ ಮರುದ್ಧಂಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕ್ಲುಪ್ತಂಚ ಮೇ ಕ್ಲುಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶಂಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧರ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಚ ಮೇ ಯಾತ್ರಂಚ ಮೇ ಸೂಶ್ಚ ಮೇ ಪ್ರಸೂಶ್ಚ ಮೇ ಸೀರಂಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂಚ ಮೇ ಮೃತಂಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಚ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂಚ ಮೇ ಸುಗಂಚ ಮೇ ಶಯನಂಚ ಮೇ ಸೂಷಾ ಚ ಮೇ ಸುದಿನಂಚ ಮೇ ಊರ್ಚ ಮೇ ಸೂನೃತಾ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂಚ ಮೇ ಮಧುಚ ಮೇ ಸದ್ಭಿಶ್ಚ ಮೇ ಸಪೇತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಜೈತ್ರಂ ಚ ಮೌದ್ಭಿದ್ಯಂಚ ಮೇ ರಯಿಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭುಚ ಮೇ ಪ್ರಭುಚ ಮೇ ಬಹುಚ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂಚ ಮೇ ಪೂರ್ಣತರಂಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೂಯವಾಶ್ಚ ಮೇ ನಂ ಚ ಮೇ ಕ್ಷುಚ್ಚ ಮೇ ವ್ರೀಹಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಮಾಷಾಶ್ಚ ಮೇ ತಿಲಾಶ್ಚ ಮೇ ಮುದ್ದಾಶ್ಚ ಮೇ ಖಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಸುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇಣವಶ್ಚ ಮೇ ಶ್ಯಾಮಾಕಾಶ್ಚ ಮೇ ನೀವಾರಾಶ್ಚ ಮೇ ಅಶ್ವಾಶ್ಚ ಮೇ ಮೃತ್ತಿಕಾಶ್ಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಸಿಕತಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಶೇಷಂ ಚ ಮೇ ತ್ರಪುಶ್ಚ ಮೇ ಶ್ಯಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಆಪಶ್ಚ ಮೇ ವಿರುಧಶ್ಚ ಮ ಔಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸುಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮ ಏಮಶ್ಚ ಮ ಇತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತಿ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇಶ್ವಿನೌ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇಂತರಿಕ್ಷಂ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಜೌಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ మూర్ధా చ మహీంద్రశ్చ మే ప్రజాపతిశ్చ మహీంద్రశ్చ మే అవగుంశుశ్చ మే రశ్మిశ్చ మేధాభ్యశ్చ మేధిపతిశ్చ మహోపాగుంశుశ్చ మే అంతర్యామశ్చ మైంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మాశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంథే చ మాగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతు గ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మైంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదీయాశ్చ మే మాహేంద్రశ్చ మాదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్రీవతశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ణ్యాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మౌపరవాశ్చ మే ధిషవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతభృచ్ఛ మాధవనీయశ్చ ఆగ్నేయీద్రం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వభృతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే శక్వరీ రంగులయో దిశశ్చ మే యజ్ఞేన కల్పంతామృక్ష మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రథంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవీ చ మే ద్వితీయవాచ్చ మే ద్వితీయోహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాచ్చ మే తుర్యోహే చ మే పష్ఠవాచ్చ మే పష్ఠౌహే చ మవుక్షా చ మే వశా చ మృషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మాయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం శ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మే ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మే ఏకవిగుంశతిశ్చ మే త్రయోవిగుంశతిశ్చ మే పంచ విగుంశతిశ్చ మే సప్త విగుంశతిశ్చ మే నవ విగుంశతిశ్చ ఏకత్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రశ్చ మేష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే चतुर्विगुंशतिश्च मेष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नेयस्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्था भदानि सगुंसि षद्विश्वे देवासु क्रवाच पृथिवीमा धर्मा माहिगुंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छञ्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागुश्च पूरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्व उदैत् पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनारशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमदन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तै यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वभूतः संभृतम् पृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावो हजज्ञिरे तस्मात् तस्मा जाता अजावयः यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् मुखं किमस्य कौ बाहु का वूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमदस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रदिशश्च दस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतपृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदध्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे हेश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुर्यज्ञाय गातुर्यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मि कण्वेन जमदग्निना विश्वावतोर्ब्रह्मणा हतः कृमीणागुम् राजा अप्येषागुस्थपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णाम् अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्य श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयो आदधामि तथा हि तत् ठण् ठण्मृदि ॐ शान्ति शान्ति शान्तिः ॐ संसमिद्युवसे वृषन्नग्ने विश्वान्यर्या इळस्पदे समिद्यसे सदो वसून्याभरा सङ्गच्छध्वम् संवदध्वम् शम्भो मनांसि जानताम् देवाभागम् यदा पूर्वे सञ्जानानामुपासते समानो मन्द्रः समितिः समानी समानम् मनः सह चित्तमेषाम् समानम् मन्त्रमभिमन्त्रयेव समानेन वो अभिजुहोमि समानीव आगोदिः समाना हृदयानि वः समानमस्तु भो मनो यथा वस्तु सहासते ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम् हवामहे प्रातर्मित्रा प्रातरश्विना प्रातर्भगम् भूषणम् ब्रह्मणस्पतिम् प्रातस्तोममुत रुद्रगुम् भुवेम प्रातर्जितम् भगमुग्रगुम् भुवेम वयम् पुत्रमदिधेर्योऽभिधर्ता आद्रश्चिद्यम् मन्यमानस्तुरश्चिद्राजा छिद्यम् भगम् भक्ष्येत्याः भगप्रणेतर्भगसत्यराजो भगे माम् दियमुदवदन्नः भगप्रणो जनयगोभिरश्वैर्भगप्रणभिर्नृवन्तः स्याम उदेदानीम् भगवन्तस्यामोद प्रवृत्त उदमध्ये अह्ना उदोदितामघवन् सूर्यस्य वयम् देवानागु सुमतो स्याम भग एव भगवागुम् अस्तु देवास्तेन वयम् भगवन्तस्याम तन्त्वा भगः सर्व इच्छो हवीमि स नो भगपुर एता भवेह समध्वरायोषसो न मन्तदधिक्रावे वसुषये पदाया अर्वाचीनम् वसुविदम् भगन्नो रथमिवाश्व वाजिना वहन्तो अश्वावतेर्गोमतेर्न उषासो वीरवति सदमुच्छन्तु भद्राः घृतम् दुहाना विश्वप्रवीणा यूयम् पात स्वस्तिभिः सदा नः यो माग्ने भागिनगुम् सन्दमता भागम् चिकीर्षते अभागमग्नेतम् कुरु मामग्ने भागिनम् कुरु ॐ शान्ति शान्ति शान्तिः ॐ ವರ್ಣಾಂ ಹರಿಣೀಂ ಸುವರ್ಣರಜತಸ್ಕ್ರಜಾಂ ಚಂದ್ರಾಂ ಹಿರಣ್ಮಯೀಂ ಲಕ್ಷ್ಮೀಂ ಜಾತಭೇದೋ ಮಹಾವಹ ತಾಂ ಮಹಾವಹ ಜಾತಭೇದೋ ಲಕ್ಷ್ಮೀಮನಪಗಾಮಿನೀ ಯಸ್ಯಾಂ ಹಿರಣ್ಯಂ ವಿಂದೇಯಂ ಗಾಮಶ್ವಂ ಪುರುಷಾನಹಂ ಅಶ್ವಪೂರ್ವಾಂ ದದಮದ್ಯಾಂ ಹಸ್ತಿನಾಗಾದ ಪ್ರಮೋದಿನೀಂ ಶ್ರಿಯಂ ದೇವೀಮುಪಪ್ಪಯೇ ಶ್ರೀಮಾ ದೇವೀ ಜುಷತಾಂ ಕಾಂ ಸೋಸ್ಮಿನಾಂ ಹಿರಣ್ಯ ಪ್ರಾಕಾರಮಾರ್ದ್ರಾಂ ಜ್ವಲಂತೀಂ ತೃಪ್ತಾಂ ತರ್ಪಯಂತೀಂ ಪತ್ನೇ ಸ್ಥಿರಾಂ ಪದ್ಮವರ್ಣಾಂ ತಾಮಿಹೋಪಪ್ಪಯೇ ಶ್ರಿಯಂ ಚಂದ್ರಾಂ ಪ್ರಭಾಸಾಂ ಯಶಸಾ ಜ್ವಲಂತೀಂ ಶ್ರಿಯಂ ಲೋಕೇ ದೇವಜುಷ್ಟಾಮುದಾರಾಂ ತಾಂ ಪತ್ನಿನೀಮೀಂ ಶರಣಮಹಂ ಪ್ರಪದ್ಯೇ ಗಲಕ್ಷ್ಮೀರ್ಮೇ ನಶ್ಯತಾಂ ತ್ವಾಂ ವೃಣೇ ಆದಿತ್ಯವರ್ಣೇ ತಪಸೋ ದಿಜಾತೋ ವನಸ್ಪತಿಸ್ತವ ವೃಕ್ಷೋತ ಬಿಲ್ವಃ ತಸ್ಯ ಫಲಾನಿ ತಪಸಾನುದಂತು ಮಾಯಾಂತರಾಯಾಶ್ಚ ಭಾಗ್ಯಾ ಅಲಕ್ಷ್ಮೀಃ ಉಪೈತು ಮಾಂ ದೇವ ಸಗಃ ಕೀರ್ತಿಶ್ಚ ಮಣಿನಾ ಸಹ ಭ್ರಾತುರ್ಭೂತೋಸ್ಮಿ ರಾಷ್ಟ್ರೇಸ್ಮಿನ್ ಕೀರ್ತಿವೃದ್ಧಿಂ ದದಾತು ಮೇ ಶುಕ್ತಿಪಾದಾಮಲಾಂ ಜ್ಯೇಷ್ಠಾಮಲಕ್ಷ್ಮೀರ್ನಾಶಯಾಮ್ಯಹಂ ಅಭೂತಿಮದ ವೃದ್ಧಿಂ ಚ ಸರ್ವಾನಿರ್ಣುದ ಮೇ ಗೃಹಾತ್ ಗಂಧದ್ವಾರಾಂ ದುರಾದಶ್ಯಾಂ ನಿತ್ಯಪುಷ್ಟಾಂ ಗರೀಷಿಣೀ ಈಶ್ವರೀಕಂ ಸರ್ವಭೂತಾನಾಂ ತಾಮಿಹೋಪಪ್ಪಯೇ ಶ್ರಿಯಂ ಮನಸಕ್ಕಾಮಮಾಕೋದಿಂ ವಾಚಃ ಸತ್ಯಮಶೀಮಹಿ ಪಶೂನಾಂ ರೂಪಮನ್ನಸ್ಯ ಮಯಿ ಶ್ರೇಕ್ಷಯತಾಂ ಯಜಃ ಕರ್ದಮೇನ ಪ್ರಜಾ ಭೂತಾ ಮಯಿ ಸಂಭವ ಕರ್ದಮ ಶ್ರಿಯಂ ವಾಸಯ ಮೇ ಕುಲೇ ಮಾತರಂ ಪದ್ಮಮಾಲಿನೀ ಆಪಸ್ಸೃಜಂತು ಸ್ನಿಗ್ಧಾನಿ ಶ್ರೀಕ್ಲೀಲವತ ಮೇ ಗೃಹೇ ನಿಜ ದೇವೀ ಮಾತರಂ ಶ್ರಿಯಂ ವಾಸಯ ಮೇ ಕುಲೇ ಆರ್ದ್ರಾಂ ಪುಷ್ಕರಿಣೀಂ ಪುಷ್ಟಿಂ ಪಿಂಗಳಾಂ ಪದ್ಮಮಾಲಿನೀಂ ಚಂದ್ರಾಂ ಹಿರಣ್ಮಯೀಂ ಲಕ್ಷ್ಮೀಂ ಜಾತವೇದೋ ಮಾವಹ ಆರ್ದ್ರಾಂ ಯಕ್ಕರಿಣೀಂ ಯಷ್ಟಿಂ ಸುವರ್ಣಾಂ ಹೇಮಮಾಲಿನೀಂ ಸೂರ್ಯಾಂ ಹಿರಣ್ಮಯೀಂ ಲಕ್ಷ್ಮೀಂ ಜಾತವೇದೋ ಮಾವಹ ತಾಂ ಮಾವಹ ಜಾತವೇದೋ ಲಕ್ಷ್ಮೀಮನಪಗಾಮಿನೀ ಯಸ್ಯಾಂ ಹಿರಣ್ಯಂ ಪ್ರಭೂದಂ ಗಾವೋದಾಸ್ಯೋಶ್ವಾದಾನ್ ವಿಂದೇಯಂ ಪುರುಷಾನಹಂ ಯಶ್ಚುತಿ ಪ್ರಯತೋ ಭೂತ್ವಾ ಜುಹುರಾರಾಜ್ಯಮನ್ವಹಂ ಶ್ರಿಯಂ ಪಂಚದಜಚ್ಚಂ ಶ್ರೀಕಾಮಸ್ಸದತಂ ಜಪೇತ್ ಪದ್ಮಾನನೇ ಪದ್ಮ ಊರು ಪದ್ಮಾಕ್ಷೀ ಪದ್ಮದಂ ಭವೇ ತ್ವಂ ಮಾಂ ಭಜಸ್ವ ಪದ್ಮಾಕ್ಷೀ ಯೇನ ಸೌಖ್ಯಂ ಲಭಾಮ್ಯಹಂ ಅಶ್ವದಾಯಿ ಗೋದಾಯಿ ಧನದಾಯಿ ಮಹಾಧನೇ ಧನಂ ಮೇ ಜುಷತಾಂ ದೇವೀಂ ಸರ್ವಕಾಮಾಶ್ಚ ದೇಹಿ ಮೇ ಪುತ್ರ ಪೌತ್ರ ಧನಂ ಧಾನ್ಯಂ ಅಸ್ತ್ಯಶ್ವಾದಿಗ ವೇರದಂ ಪ್ರಜಾನಾಂ ಭವಸಿ ಮಾತಾ ಆಯುಷ್ಮಂತಂ ಕರೋತು ಮಾ धनमग्निर्धनम् वायुर्धनम् सूर्योधनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनदेवसोमम् पिबसोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न दमात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपेत् सदा वर्षन्तु देवि भावरि दिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्म द्विजो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायदाक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्ममम् मयि सन्निधस्ता यासा पद्मासनस्ता विपुलकटितली पद्मपत्रायदाक्षी गम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिघनघजितैः स्नापिता हेमकुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीम् क्षीरसमुद्रराजतनया श्रीरङ्गदामेश्वरी दासी भूतसमस्तदेववनिताम् लोकैकदीपाम्बुराम् श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधराम् ताम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मी सरस्वती श्रीलक्ष्मी परलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभीतिमुद्राम् करैर्वहन्तीम् कमलासनस्ताम् बालार्कोटिप्रतिभाम् त्रिनेत्राम् भजेऽहमम्बाम् जगदीश्वरीम् त्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तुते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् राजाधिराजाय प्रदय्यसाहिनेके नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्य परिपालयन्ताम् ज्ञायेन मार्गेण महीम् महिषाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति